एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा जलविद्युतः सेचनस्य च कृते नदीनाम् जलस्य अन्यत्र नयनात् पूर्वं नदीषु पर्याप्त वातावरणीय जलप्रवाहस्य अविद्यमानताम् प्रति जलस्रोतविदः चिन्ताम् प्रकटयन्ति राजधान्यां पूर्वेद्युः आयोजिते कार्यक्रमे नदीनां दोहनं कार्यम् अवरोध्य नद्यः स्वस्थाः स्थापयितुं स्तरस्त्रयस्यैव सर्वकारैः स्थानीय समुदायेन च गभीरैर्भाव्यम् इत्यत्र विज्ञैः बलं प्रदत्तं वर्तते त्रयोविंशतिः वर्षेभ्यः पूर्वं निर्मितायां नेपालस्य जलविद्युत् सम्बद्धायां नीतौ प्रत्येकम् आयोजनया न्यूनतोऽपि प्रतिशतं दशभि अंकहि वातावरणीय प्रवाहस्य सुरक्षा विधेयति व्यवस्थायां सत्यामपि न्यूनायोजनाभिरेव वातावरणीय प्रवाह संरक्षितोऽस्तीति विभिन्नाध्ययनेन दर्शितमस्ति अस्य आर्थिकवर्षस्य पञ्चसु मासेषु नेपालात् विधीयमानः सम्पूर्ण वस्तूनां निर्यातः 10.75 प्रवर्ध्य 73,66 कोटयस्य रूप्यकाणि प्राप्तानि वर्तन्ते गतवर्षे अस्मिन् समय एवं निर्यातः 10.1 कोटि न्यूनीभूता आसीत् देशस्य आधारेण भारत चीन देशौ प्रति जायमानः निर्यातः क्रमशः 10.73% एवं 10.9% वृद्धिं गतोऽस्ति चेत् अन्य देशेषु नेपालस्य निर्यातः 10.1% न्यूनीभूतो वर्तते प्रधानमन्त्री केपी शर्मा ओली सूचना प्रविधि क्षेत्रस्य वैदेशिक मुद्रायाः अर्जनोद्योगत्वेन विकासो भविष्यति विश्वासं व्यनक्ति फेसबुक सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्री ओली नेपाले सूचना प्रविधे क्षेत्रे कार्यं कुर्वतां जनानां विधिगत काठिन्यस्य गत शुक्रवासरस्य मन्त्री परिषद उपवेशेन अध्यादेशस्य माध्यमेन सम्बोधनं विहितमस्ति इति अभासत प्रधानमन्त्री ओली नेपालस्य सूचना प्रविधि सम्बद्धाभि संस्थाभि विदेशेषु निवेशं कर्तुं विदेशेषु शाखा कार्यालयस्य माध्यमेन धनम् अर्जयितुम् अर्जितं धनं विधिसम्मतरीत्या नेपाले आनेतुं च शक्यते इति उल्लिखितवान् अस्ति पाल्पा जनपदस्य सिद्धबाबा स्थाने निर्माणाधीनस्य भूमिगत गुहा मार्गस्य पारिगमन कार्यं माघमासस्य अष्टमे दिवसे भविता सिद्धार्थ राजमार्गान्तर्गतस्य भुचवल पाल्पा मार्गखण्डे स्थितस्य सिद्धबाबा मन्दिरस्य समीपे निर्मीयमाणस्य बहुचर्चित भूमिगत गुहा मार्गस्य निर्माण कार्यम् एकादश मासाभ्यन्तरे पारेनयनस्य अवस्थायां प्राप्तमस्तीति सांसद ठाकुर गैरे अज्ञापयत् सप्तानाम् अब्जानां चतुस्त्रिंशतः कोटीनाम् एकविंशतेः लक्ष्याणां च रूप्यकाणां व्ययेन गुहा मार्गोऽसौ चाइना स्ट्रेट कन्स्ट्रक्शन इंजीनियरिंग कॉर्पोरेशन नाम्न्या संस्थया निर्मीयमाणोऽस्ति मनाङ जनपदस्य पर्यटकीय स्थलस्य तिलिचूर हृदस्य आधार शिविरम् एवं थोराङ्ग्ला इत्याख्याम् अधीत्यकां च यावत् विद्युतः राष्ट्रिय प्रसारणं सम्प्राप्तमस्ति राष्ट्रिय प्रसारण मार्गस्य विद्युतः संयोजनेन सहैव सौर्योर्जसः बाध्यता समाप्ता वर्तते मनाङ जनपदस्य निस्याङ ग्रामपालिकायाः नवम ओडा क्षेत्रस्य खाङसार स्थाने 50+200+400 मीटर परिमिते उच्चस्थले विद्यमाने आधार शिविरे 50 केभीए क्षमतायाः वितरणोपकरणं संस्थाप्य विद्युदापूर्तिः विधीयमाना अस्ति इति प्राधिकरणस्य कार्यकारी निर्देशकः कुलमान घिसिङ असूचयत् प्राधिकरणेन धार्मिक पर्यटकीय क्षेत्रं प्रकाशयुक्तं विधातुं तिलिचूर हृदस्य आधार शिविरं यावत् राष्ट्रिय प्रसारण मार्गेण विद्युत् प्रापिता अस्ति राष्ट्रनिर्मातुः पृथ्वीनारायण शाहस्य 73-शततम्याः जन्मजयन्त्याः अवसरे ह्य आराष्ट्रं राष्ट्रियैकता दिवसः विविधैः कार्यक्रमैः सह समायोजितो वर्तते आधुनिक नेपालस्य एकीकरण अभियानस्य नेतृत्वकर्तुः सहस्य योगदानं स्मृत्या विविध कार्यक्रमान् आयोज्य पृथ्वी जयन्ती समायोजिता अस्ति। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन ह्य पृथ्वी जयन्त्या अवसरे आयोजिते कार्यक्रमे सिंहप्रासादस्य प्रमुखद्वारस्य अग्रे विद्यमानायां साहस्य प्रतिमायां माल्यार्पणं विहितं वर्तते। तदवसरे नेपाली सेनया सम्मानाभिवादनं च अर्पितमासीत्। पृथ्वी जयन्त्या अवसरे राप्रपादलेन ह्य भ्रिकुटी मण्डपे जलपान समारोह आयोजितोऽस्ति। कार्यक्रमे प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली सहभागी अभवत्। ह्य एव राष्ट्रिय प्रजातन्त्र दल नेपालेन आयोजिते कार्यक्रमेऽपि प्रधानमन्त्री ओली सहभागी अभवत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति स्वास्थ्य क्षेत्रे जनहि अनुभवनत्वेन परिवर्तनं सञ्जातमस्ति। ह्य तनहु जनपदे आयोजिते कार्यक्रमे मन्त्री पौडेलः मन्त्रालयेन नागरिकेभ्य औषधोपचारे सहजतया सौविध्यं प्रदाय अनुभूतिकारिता अस्ति इति अभाषत। मन्त्री पौडेलः रोगिणाम् उपचाराय मन्त्रालयो सदैव अग्रेसरोऽस्तीति अभाषत। पूर्व पश्चिम राजमार्गान्तर्गतस्य मकवानपुरस्य मनहरी ग्रामपालिकायाः षष्ठ ओडा क्षेत्रे ह्य दुरापन्नायां दुर्घटनायां द्वौ जनौ मृतौ स्तः। स्कार्पियो जीपयानस्य कारयानस्य च संघटनेन सम्भूतायां दुर्घटनायां हेटौडा उपमहानगरपालिकायाः चतुर्थ ओडा क्षेत्रस्य षष्ठीवर्षीयः सुरेन्द्रलाल श्रेष्ठः, चितवन जनपदस्य राप्तीनगरपालिकायाः द्वितीय ओडा क्षेत्रस्य गडेउली स्थानस्य 50 वर्षीया सुनिता श्रेष्ठस्य अम्रियताम् इति प्रहरिणा ज्ञापितं वर्तते। उदयपुर खोटाङ जनपदयोः योजकस्य गाईघाट दिक्तेल मार्गखण्डस्य सुनकोशी नद्यां लौह निर्मित सेतोः योजना कार्यं सम्पन्नमस्ति। उदयपुर जनपदस्य रौतामाई ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य खोटाङ जनपदस्य खोचीहाङ ग्रामपालिकायाः नवम ओडा क्षेत्रस्य लिस्की राम्चे स्थान योजकस्य सगरमाथा राजमार्गस्य फक्सिन्टार स्थानस्य वज्रचूर्ण सेतोः गताश्विन मासस्य द्वादशी दिवसे दुरापन्नेन भीषण जलविप्लवेन प्रवाहनानन्तरं उदयपुर खोटाङ जनपदयोः प्रत्यक्षं यातायात सेवा अवरुद्धा आसीत्। फोक्सिङटार स्थानस्य वज्रसेतोः जलप्लवेन प्रवाहनानन्तरं वैकल्पिक मार्गस्य रूपेण लौहसेतुं निर्माय अस्थायी रूपेण खोटाङ उदयपुर जनपदयोः यातायात सेवा सञ्चालिता अस्ति। मधेश कृषि विश्वविद्यालयस्य वार्षिकाय व्ययकस्य अपारितीकरणात् विश्वविद्यालयस्य कार्यं प्रभावितम् वर्तते। वर्तमानार्थिक वर्षस्य पञ्चानां मासानां समाप्ते पश्चादपि विश्वविद्यालय सभातः आयव्ययकस्य अपारिति भवनानन्तरं वित्तस्य अभावेन पठन पाठनात् निर्माणाधीन भवनानां कार्यञ्च प्रभावितमस्तीति विश्वविद्यालयस्य कुलसचिवः डाक्टर भगवान ठाकुर अज्ञापयत्।